सूर्यकवचः ओम अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवान् ऋषिः अनुष्ठुप् छन्दः आदित्यो देवता श्रीं बीजं नीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ध्यानं जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकं सिन्दूराम्बरमाल्यञ्च रक्तगन्धानुलेपनं माणिक्यरत्नखचित सर्वाभरणभूषितं सप्ताश्वरथवाहन्तु मेरुं चैव प्रदक्षिणं देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितं ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् आदित्योलोचने पातु श्रुती पातु दिवाकरः घ्राणं पातु सदा भानुः मुखं पातु सदा रविः जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः स्कन्दौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः करावव्यकरः पातु हृदयं पातु नभोमणिः द्वादशात्मा कटिं पातु सविता पातु सग्धिनी ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः आदित्यकवचं पुण्यम् अभेद्यं वज्रसन्निभं सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ध्यानम् अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणं कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलं सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणाय तुभ्यं पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्रनारायण शङ्कराय संरक्तचूर्णं ससुवर्णदोयं सकुङ्कुमाभं सकुशं सपुष्पं प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद प्रसीद भगवन् प्रसीद प्रसीद भगवन् प्रसीद प्रसीद इति श्रीपद्मपुराणे आदित्यकवचं समाप्तम्।